एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री शेरबहादुर देउवा वदति स्थपतयो राष्ट्र निर्माणस्य प्रवर्धकाः विकास निर्माणयोः संवाहकाश्च सन्ति। नेपाल इंजीनियर्स एसोसिएशन संघेन ह्य काठमाण्डपे आयोजिते स्थपति दिवस कार्यक्रमे प्रधानमन्त्री देउवा राष्ट्रिय विकास पूर्वाधाराणाम् अधिकल्पनाय निर्माणस्य द्रुतगत्या अग्रे वर्धनाय देशस्य आर्थिक विकासाय साहाय्य प्रापणत्वेन आधुनिक पूर्वाधार सुविधानां विकासाय च स्थपतीनाम् अतुलनीय भूमिका भवति इति अभासत। प्रधानमन्त्री देउवा राज्यस्य परिकल्पनायाः अनुसारेण विकास निर्माण कर्त्र्यः व्यक्तयः स्थपतयः एव सन्ति इति चर्चयन् अवोचत् आर्थिक समृद्धेः विकासस्य रेखाङ्कनाय जनतायाः आवश्यकतानां पूरणाय च स्थपतिभिः व्यावसायिकैः क्रियाशीलैश्च भाव्यम्। प्रधानमन्त्री देउवा स्थपतीन् अतिरिक्तं दक्षान् विधातुं सर्वकारः सहयोगं विदधातीति प्रतिबद्धताम् अभिव्यनक। प्रधानमन्त्री देउवा राष्ट्राय उच्चैर् योगदानं प्रापयतः स्थपतीन् विभिन्नासु सप्त सुविधासु सममानयत। कार्यक्रमे भौतिक पूर्वाधार यातायात मन्त्री मोहम्मद इस्तियाकराई अकथयत् स्थपतिभिः विकास निर्माणयोः कामपि संविधान न कृत्वा व्यावसायिक मर्यादा संस्थापनीया। संसदः अन्तर्राष्ट्रिय सम्बन्ध समित्या तारागाउँ विकास समितेर नाम्नि विद्यमानायाः भूमेः भौतिक सम्पत्तीनां च संरक्षणाय प्रभावकारी कार्यं चालयितुं निर्दिष्टं वर्तते। समितेः ह्य सिंहप्रासादे उपविष्टे उपवेशे हायात तरी जेन्सी नाम्ना अतिथिगृहेण सहितां तारागाउँ विकास समितेर नाम्नि विद्यमानां भूमिम् अन्विष्य व्यक्तेर नाम्नि पञ्जीभूतायं सत्यां तस्याः प्रत्यावर्तन प्रक्रियां च अग्रे वर्धयितुं निर्दिष्टमस्ति। समितेः सभापतिः पवित्रा निरौला खरेलः सर्वकारीय सम्पत्तेः अनियमिततायाः निवारणाय आवश्यक सावधानताम् अवलम्बितुम् अपि निरदिशत। उपवेशे संस्कृति पर्यटन नागरिक उड्डयन मन्त्री जीवन राम श्रेष्ठः हायात रिजेन्सी अतिथि सदनस्य भूमेः प्रत्यावर्तनस्य विधिगत प्रक्रियायाः विषये मन्त्रालयः अध्ययनरतोस्तीति अज्ञापयत्। प्रतिनिधि सभायाः विकास प्रविधि समित्या वसति विकासेन भवन निर्माणे च भवन निर्माणेन च सह सम्बन्धम् मापदण्डम् समयानुकूलतया परिमार्जयितुम् निर्दिष्टमस्ति। समितेः ह्यस्तनोपवेशे सभापतिः कल्याणी कुमारी खड्का भवन निर्माणेन सह सम्बद्धम् द्वासप्तत्युत्तर द्विसहस्रतम विक्रमवर्षीयम् मापदण्डम् संशोध्य देशस्य भौगोलिकावस्थायाः अनुरूपम् मापदण्डम् निर्मातुम् निरदिशत। सभापतिः खड्का अभासत हिमालय पर्वत तराई क्षेत्राणां भूगोल वातावरणयोः अनुकूलतया मापदण्डः निर्मातव्यः। उपवेशे नगरीय विकास मन्त्री मेटमणि चौधरी अगदत् सम्बद्ध क्षेत्रस्य विज्ञैः प्राविधिकैश्च सह आवश्यकं विमृश्य सर्वेषां परामर्शनस्य आधारेण नीतिं निर्मातुं मन्त्रालयः प्रतिबद्धोऽस्ति। प्रतिनिधि सभायाः महिला सामाजिक समित्या पीड़ित महिलानाम् अपेक्षानुरूपम् अतिरिक्तम् संवेदनशीलतया कार्यसम्पादनम् विधातुम् राष्ट्रिय महिलायोगः निर्दिष्टो वर्तते। समितेः गतदिने उपविष्टेन उपवेशेन महिलानाम् समग्र हितप्रवर्धकम् उद्देश्यम् केन्द्रीकृत्य प्रभावकारी कार्यसम्पादनम् विधातुम् निर्दिष्टमिति समितेः सभापतिः नीरुदेवीपालः अबोधयत्। प्रतिनिधि सभायाः शिक्षा स्वास्थ्य समितौ षट् सप्तत्यधिक द्विसहस्रतम वैक्रमाब्दस्य योगमायायुर्वेद विश्वविद्यालय विधेयकस्य प्रकरणगत विमर्शनम् सञ्चलदस्ति। समितेः ह्य सिंहप्रासादे उपविष्टे उपवेशे योगमायायुर्वेद विश्वविद्यालयस्य प्रकृतेः संघटनात्मक संरचनायाः निवेशनस्य अध्ययनानुसन्धानयो क्षेत्रस्य च विषयेषु सांसदाः धारणाम् उपस्थापयन्। उपवेशे शिक्षा विज्ञान प्रविधि मन्त्री देवेन्द्र पौडेलः विधेयकम् वर्तमान आवश्यकतास्तीति चर्चयन् अवदत् विधेयकमिदम् तत्कालम् पारित कर्तव्यम्। पूर्व शिक्षा मन्त्री नेकपा माओवादी केन्द्रस्य सांसदश्च गिरिराजमणि पोखरेलः नेकपा एमाले दलस्य सांसद योगेश भट्टराई सरिता नेउपाने मीनबहादुर विश्वकर्मा प्रेम सुबालश्च विमर्शने भागम् अगृह्णन्। शिक्षा स्वास्थ्य समितेः सभापतिः जयपुरी घरती योगमायायुर्वेद विश्वविद्यालय विधेयकम् ससंशोधनम् अपरोपवेशेन पारितीकरिष्यते इत्यबोधयत्। राष्ट्रिय सभायाः अध्यक्षेण गणेश प्रसाद तिमलसिना विधेन संसदीय गतिविधीनां समाचाराणां सम्प्रेषणम् अतिरिक्तं प्रभावकारी सम्पादयितुं सार्वजनिक संचार माध्यमानां प्रमुखैः समाचार प्रमुखैश्च सह यो विमृष्टमस्ति। विमर्शनस्य क्रमे अध्यक्ष तिमलसिना राष्ट्रिय सभायाः महत्वपूर्ण गतिविधिनापि संचार माध्यमेषु उचितं स्थानं न प्राप्तमिति आत्मनः अनुभूतिरस्तीति अबोधयत्। असौ सदनद्वयस्यैव कार्येण सांसदानाम् अभिव्यक्त्या च समानं महत्वं प्राप्तव्यमिति धारणां व्यक्तवान्। विमर्शने रेडियो नेपालस्य कार्यकारी निर्देशकेन बुद्धिबहादुर केसी इत्यनेन सहिता संचार माध्यमानां प्रमुखा संसदीय समाचाराणाम् अतिरिक्त प्रभावकारिणां सम्पादनस्य सम्बन्धे धारणाम् उपस्थापयन्। नेकपा एकीकृत समाजवादी दलस्य केन्द्रीय सचिवालयो प्रवेशेन वर्तमानं पञ्चदलीय गठबन्धनं संरक्ष्य वामैकतायाः कृते प्रयत्नाय निर्णीतमस्ति। नेकपा एकीकृत समाजवादी दलस्य ह्यः सम्पन्नेन केन्द्रीय सचिवालयो प्रवेशेन संघटन सुदृढीकरणस्य अभियानं सक्रियतया अग्रे वर्धयितुं वर्तमानार्थिक समस्यायाः विषये प्रस्तावं निर्मातुं समाजवादेन सम्बद्धं विवरणं निर्मातुं च निर्णीतमिति महासचिवेन बेदुराम भूषालेन ह्यः प्रकाशितायं विज्ञप्तौ ज्ञापितमस्ति। उपवेशे गताषाढ़ मासे सम्पन्नात् केन्द्रीय परिषदः प्रथमोपवेशात् पारितानां कार्ययोजनानां क्रियान्वयनस्य सम्बन्धेऽपि विमृष्टमासीत् इति च विज्ञप्तौ ज्ञापितमस्ति। नेकपा माओवादी केन्द्रस्य अध्यक्षस्य पुष्पकमल दाहाल प्रचण्डस्य पूर्व प्रधानमन्त्रिणा डाक्टर बाबुराम भट्टराई इत्यस्य च मध्ये ह्यो मेलवार्ता अभवत्। सिंहप्रसादवर्तिनी माओवादी केन्द्रस्य संसदीय दलस्य कार्यालये एतयोर्मध्ये सामयिक विषयेष् विमृष्टमिति नेकपा माओवादी केन्द्रस्य अध्यक्ष प्रचण्डः ज्ञापितवान्। संचारकर्मिणां जिज्ञासाम् उत्तरयन् अध्यक्ष प्रचण्ड जनता समाजवादी दलस्य उपेन्द्र यादव पक्षेण डाक्टर बाबुराम भट्टराई प्रवृत्तयो नेता दण्डिताः सन्तोऽपि भट्टराई पक्ष पञ्चदलीय गठबन्धने एव विद्यते इति समस्पष्टयत्। अध्यक्षः प्रचण्डः नेपाली कांग्रेस दलस्य केन्द्रीय समित्या आगामी निर्वाचनम् यावत् गठबन्धनाय नैरन्तर्यं प्रदातुं विहितो निर्णयः स्वागतयोग्योऽस्तीति प्रतिक्रियां व्यक्तवान्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री जीवन राम श्रेष्ठ कथयति सप्तसु एव प्रदेशेषु पर्यटनातिथि सदन व्यवस्थापन सम्बद्धं प्रतिष्ठानं स्थापयिष्यते। मन्त्रालयस्य अन्तर्गतं संचालितेन नेपाल पर्यटनातिथि सदन व्यवस्थापन प्रतिष्ठानेन संचाल्यमानानां विभिन्न शैक्षिक कार्यक्रमाणां प्रशिक्षणानां च विषये ह्यो ज्ञापयन् मन्त्री श्रेष्ठः अब्रवीत् पर्यटन क्षेत्रस्य विकासस्य विस्तारयोः कृते शिल्पमूलक जनशक्तेः निर्माणम् आवश्यकं वर्तते। पेयजल मन्त्री उमाकान्त चौधरी सबल विकास लक्ष्यस्य पूरणाय त्रिंशत् उत्तर द्विसहस्रतम ख्रिष्टवर्षं यावत् प्रतिशतं पञ्चाशता प्रदूषित जलस्य प्रशोधनत्वेन संरचनां निर्मातुं निर्दिशति। काष्ठमण्डप उपत्यका पेयजल लिमिटेड आयोजना क्रियान्वयन निर्देशनालयेन धोबीघाट स्थाने निर्मीयमाणं प्रदूषित जल प्रशोधन केन्द्रं ह्य अवलोकयन् असौ अवदत् पेयजलस्य याचनायाम् अधिकायां सत्यामपि प्रदूषित जल प्रशोधनस्य याचना न्यूना वर्तते। नेकपा एमाले दलस्य वरिष्ठोपाध्यक्ष ईश्वर पोखरेलः भासते संविधानस्य क्रियान्वयनस्य दिशां प्रति देशः अग्रे वर्धमानोऽस्ति। प्रेस चौतारी नेपालस्य प्रथम प्रदेश समित्या ह्य विराटनगरे आयोजिते पत्रकार सम्मेलने असौ अभासत नेपालस्य संविधानं राष्ट्रिय सहमतेः आधारेण क्रियान्वितमस्ति। संघस्य प्रदेशानां च आगामी निर्वाचने स्वस्य दलेन श्रेष्ठताम् अधिगमिष्यते इति निश्चिन्वन् असौ निर्वाचने एमाले दलम् एकाकी अग्रे वर्धितुं तत्परो स्थिति अवोचत इति समाचाराः।